कदा वा विरक्तिः कदा वा सुभक्तिः कदा वा महायोगी संसेव्य मुक्तिः हृदाकाशमध्ये सदा संवसन्तं सदानन्दरूपं शिवं साम्बमीडे सुधीराजहंसै सुपुण्यावतंसै सुरश्री समेतै सदाचारपूतै अदोषै सुरुद्राक्ष भूषाविशेषै अदीनैर्विभूत्यांगरागोज्वलांगै शिवध्यान संसक्त शुद्धांतरंगै महाशैव पंचाक्षरी मंत्र सिद्धैः तमोमोचकैरेचकैः पूर्वकाद्यैः समुद्दीपिताधार मुख्याब्ज षट्कैः हठल्लम्बिका राजयोग प्रभावा लुठत् कुण्डली व्यक्त मुक्तावकाशाम् सहस्रार पद्मस्थितां पारवारां सुधा माधुरीं साधुरीत्यापि बद्धिः सदानंद कंदैर महायोगी बृंदै सदा सेव्यमानं समुज्जृंभमानं महापुण्य पाके पुनः पुंडरीके सदा संवसंतं चिदानंद रूपं तटित्पुञ्जचञ्चच्छटाजूटवाटि नटज्जह्नुकन्या तटिन्यासमेतम् महानर्घमाणिक्यकोटीरहीर प्रभापूरितार्थेन्दुरेखावतंसम् हणा भृण्मणि कुण्डलालोलकर्ण द्वयी चारुतादर्पणादण्डभागम् सुनेत्राणि कंसादर भ्रूविलासं समन्दस्मितास्यारविन्दं श्रयन्तम् लसत्पीवरां सद्वयं नीलकंठं महोरस्थलं सूक्ष्ममध्यप्रदेशं वलिद्योतमानोदरं दिव्यनाभिं कुठारैणशाबाञ्चिताभ्यांकराभ्याम् मुखाब्जै स्तुवन्तं कराब्जै नमन्तं विधिं मानयन्तं मुनीं लालयन्तं गणान् पोषयन्तं मृदुक्तिर् चैर्वदन्तं गुहं चैकदन्तं करेण स्पृशन्तम्। महादेवमन्तर्भजेऽहं भजेऽहं सदा पार्वतीशं भजेऽहं भजेऽहं सदानन्दरूपं भजेऽहं भजेऽहं चिदानन्दरूपं भजेऽहं भजेऽहं। भुजङ्गप्रयातस्तवं साम्बमूर्तेरिमं ध्यानगम्यं तदेकाग्रचित्तः पठेद्यः सुभक्तः समर्थः कृतार्थः सदा तस्य साक्षात् प्रसन्नः शिवः स्यात्।